ीगाहते वृधो विश्वानि गृह्वन् सुपथानि यज्जते गाकृण्वाणो निर्भयम् हर्यतः कविरत्यो न क्रेणम् परिवारमर्हति असश्चतश्चतधाराभिश्रियो हरिम् लभन्ते वदाभूधन्युवाः शिवो व्रजन्ति परिगोभिरावृतम् तृतीये पृष्ठे अधिलोचने दिवः प्रजा दिव्यस्य रतसस्त्वम् विश्वस्य भुवनस्य राजसि अथेदम् विश्वम् भवमानदेवते त्वमिन्दो प्रथमो धामधासि तुन्द्रमुद्रादिविश्वविद्गवेदे मा पञ्च प्रतिशोऽपि धर्मणि तुन्द्याम् च पृथिवीम् जातिजभृणेत वज्ज्योतिम् शिवभवानसूर्याः त्वम्भवित्रे रजसोऽपि धर्मणि देवेभ्यः सोमपवमानपूयसे प्रथमाग्रभ्रदतुद्येमा विश्वाभुवनानि ये मिले प्ररेभये त्रिवारमव्ययम् मृषावने स्ववचक्रदद्धरीः सन्धीतयो वावसानानोषधसि संविहन्ति मतयः पनिप्रतम् सूर्यस्य रश्मिभिः परिम् यदन्तम् धन्वारस्त्रिवृतम् यथाभिदे अजम् धृतस्य प्रशिरो नवीयसीपतिर्जनीनामुपजाति निष्कृतम् राजा सिन्धूनाम् भवते पतिर्दिवृतस्य जातिपतिभिः कनिक्रदते सहस्रधारः परिषिच्यते हरिः पुनानो वाचम् जनयन्नुपावसुः अपमानमह्यर्नो विधावसि सूरो न चित्रो अव्ययानिवव्यया गभस्ति भूतो निभिरद्रेभिः सुतो महेवाजाय धन्याय धन्वसि इषमोर्जम् भवमानाभ्यर्षसि सेनो नवम् सुकलशेषु सीदसि इन्द्रायमद्वा मद्यो मदः सुतो दिवो विष्टम् भवो भवो वीचक्षणः सप्तस्वसारो अभिमातरस्य सुन्नवम् यज्ञानम् जेन्यम् विपश्चितम् अपाङ्गम् धर्मम् दिव्यम् विचक्षसम् सोमम् विश्वस्य भुवनस्य राजसे ईशान इमा भुवनानि वीयसेयुजानयम् हरितः सुपन्याः तास्ते क्षरन्तु मधुमद्घृतम् वयस्तमव्रते सोमतिष्ठन्तु कृष्टजाः त्वमृचक्षासि सोम विश्वतः पवमानवृषभदा विधावसि सनप्पवस्तवसो मध्यरन्यवद्वयम् स्यामभुवनेषु जीवसे गोवित्पवस्वसुमिद्धिरन्यविद्रे दोधायम् भुवनेष्वर्पीतः त्वम् सुवीरो असि सोमविश्ववित्तम् त्वाभिप्रागुपगिरे महासते उन्मध्वभूर्मिर्वनना अतिष्ठिपदपोवसा नो महिषो विगाहते पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् स बन्दनामुदीयर्त्य प्रजावधीर्विश्वायुर्विश्वासुभराहर्दिवि ब्रह्म प्रजावद्रयिमस्वस्यम् वीतयिन्दविन्द्रमस्मभ्यम् याचतात् सोऽग्रे अह्नाम् गर्विहर्यतो मधप्रचेतसा चेदयते अनुद्युभिः जातयन्नन्तरीयते न राजसम् सन्दैव्यम् च धर्तरि अनुजदेव्यम् जते समञ्जते कृतम् लिहन्ति मधूनाभ्यञ्जते सिन्धोरुच्छ्वासे पतयम् मुक्षणम् हिरण्यपापाः पशुमासु गृह्णते विपश्चिते पवमानायकायतमहीनधारात्यन्धो अर्षति अयर्नजोर्नामदे सर्पदित्वचमद्यो न क्रीडन्न सरदृशा हरिः अग्रे गो राजाभ्यस्त विश्वते विमानो अह्नाम् भुवनेष्वर्पीतः हरिर्घृतस्म सुदृशी को अर्णवो ज्योतिरसः पवते राजभोग्याः असर्जस्कम्भो इव उद्यतो मतः परित्रधातुर्भुवनान्यर्षति अम् संरेहन्ति मतयः पनिप्रदम् गिरायति निर्निजमृग्भिनो ययुः प्रदेधारात्यन्वानि वेश्य पुराणस्य संयतोऽयम् तिरम्भजः निर्गोभिरिन्दो जम्बो समज्जसासो बालस्तोमकलशेषु सीदसि अवस्वतोमकृतुभिन्ना भुक्षो व्यो वारे परीधावमधुप्रियम् यदि विश्वान् रक्षस इन्दो अत्विनो बृहद्वदेव विदधे सुवीराः प्रतुद्रमपरिको संनिषेदर्भिः पुनानो अभिवाजमर्ष अश्वम् मत्वा वादिनम् वर्जयन्तोच्छाभिरहीरसनाभिर्नयन्ति स्वायुधः पावते देव इन्दो रसस्थिरावृजनम् रक्षमाणः पिता देवानाम् जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ऋषिर्विप्रः पुरजेता जनानामृभुर्धीरभुषनाकाव्येन स चिद्विवेदनिहीतम् यदा सामभीज्या अङ्गुह्यम् नाम गोनाम् येषस्य देवधूमान्यन्द्रसोमो वृषा वृष्टे परि पवित्रे अक्षाः सहस्रदासदसा भूरिदावासस्वत्तमम् बलिहिराबाद्यस्तात् एते सोमा अभिगव्या सहस्रा महे वाजा यावृता यस्रवांसि पवित्रे विप्पवमाना असृग्रम् श्रवस्य भो न वृतनाजो अत्याः परिहिष्मा पुरुहूतो जनानाम् विश्वासरद्भोजना पूयमानः अथाभरस्य न वृतः प्रजाम् शिरयिम् तुञ्जानो अभिवाजमर्ष एषसो भानः परिसोमः पवित्रे सर्गो न सृष्टो अदधावदर्वाः दिग्भेशिता नाम यशो न सङ्घे गाघव्यन्नपि सूरो न सत्त्वाः एषायौ परमादन्तरद्रेः कूचिः स्वतीरूर्वे गावीवेद दिवो न विद्युस्तनयम् चभ्रैः सोमस्य ते भवतयम् प्रधाराः उदस्म राशिम् परीयासिगो नामिन्द्रेण सोमसरथम् पुराणः ीर्जीरदानो शिक्षा सजीवस्तवतापष्टुत् अयम् सोम इन्द्रतुभ्यम् सुन्वेतुभ्यम् भवते त्वमस्य पाहि त्वम् हयम् च कृषेर्वम् वृषयिन्दुम् मदायुज्याय सोमम् स यीम् रसो न भूरिषालयोजिमः पुरूणि सातजेव सूनि आधीम् विश्वानहुष्याणि जातास्वर्षातापनभूर्ध्वानवन्त वायुर्नयो नियुत्वाङ्गिष्टयाः माना सत्ये बहवः सम्भविष्टः विश्ववारोद्रविनोदाजी पद्मन्भूषेव धीजव नोऽसि सोम इन्द्रो नयो महाकर्माणि चग्रहन्ता रुद्राणामसि सोमभूद्भिः त्वयैद्वो नहि त्वमहीनाम्ना विश्वस्यासि सोमदस्योः अग्निर्नयो वन आसृज्यमानो वृथा पादांसि कृणुते नदीषु जनो न युद्ध्वा महदवोपद्धिर्यत्ति सोमपवमानभूर्मिम् एते सोमाधिवाराण्यव्या दिव्यानवोषासो अभ्रवर्षाः वृथा समुद्रम् सिन्धभो न नीतिः सुदासो अभिकलसान्नसृग्रन् सुष्मे सर्धो न मालोदम् भवस्वानभिसस्ता दिव्याय साविट् आपो न भक्षो मतिर्भवानः सहस्रात्सा मृतराशान्नयज्ञः ोऽनुदेवरुणस्य व्रतानि बृहद्गभीरम् सोमधाम सुचेष्टवासि प्रियो न विक्रो दक्षायो हर्यमेवासि सोम रोषमन्यपत्याभिरस्याम् दिवो न वृष्टिः पवमानो अक्षाः सहस्रधारो असधन्या अस्मे मातुरुपस्थेवनाथ सोमाः राजा सिन्धो नाम वसिष्ठवासहृतस्य नाभमारुहद्रजिष्ठाम् अप्सुद्रप्सो वा वृधेश्येन दूतो दुःखजीम् पिता दुःखजीम् पितुर्जाम् सिंहम् न सन्तमध्वो अजा संहरीमरुषम् दिवो अस्य पतिम् सूरो युत्सुप्रथमः पृच्छते गास्य चक्षसा परीपात्युक्षा मधो पृष्ठम् घोरमजा समस्वम् रथे युञ्जम् दुर्चक्रविश्वम् स्वसारयीम् रामयो मर्जयन्ति सनाभयो भाजिनमूर्जयन्ति शतस्रयीम् कृतदुःखस्वजम् ते समाने अन्तर्धरुणे निषत्ताः आयीमनुषन्ति नमसा पुनानास्तायीम् विश्वतः परिषन्ति पूर्वीः विष्टम्बो दिवो धरुणः पृथिव्या विश्वा बुदक्षितयोगस्ते अस्य असत्तमुत्सो गृणते नियुत्वान्मध्वो अंसः पवदयेन्द्रियाय मन्मन्नवातो अभिदेववीतिमिन्द्राय सोमवृत्रहापवस्व सद्धिमः पूरश्चन्द्रस्य राजस्वीर्यस्य पताय श्याम रयन्वादो जनितारोदस्योदसोदवाजम् रविष्यन्नायासीत् इन्द्रम् गच्छन्नायुधा संसिधानो विश्वावसुहस्तयो राधानः अधिष्ठे पृष्टम् मृषाणम् वयोधामाङ्गूषाणाम वावसन्तवाणीः मनापसा नो वरो नो न सिन्धोन्विरत्रदायते वार्याणि सूरग्रामः सर्ववीरः सह भाञ्जेता पवस्वसनीता धनानि दिग्मायुधः क्षिप्रधन् वासमस्वशालः साह्वाङ्गशत्रून् गुरुगौ योतिलभयाति गण्वान् समीचीने आपवस्वा पुरन्धि अवस्थिषासन्नुषसस्वा अर्गासञ्जिक्रदो महो अस्मभ्यम् वादान् मत्सीयोमवरुणम् मत्सीमित्रम् मत्सीन्द्रमिन्दोपवमानविष्णुम् मत्सिसर्धो मारुतम् मत्सीदेवान्मत्सीमहामिन्द्रमिन्दो मदाय एवाराजेवक्रतु माङ्गमेन विश्वाघनिघ्नदुरितापवस्व इन्दो सूक्ताजपच सेवयोधायूरम् पात स्वस्तिभिस्वदानः भद्रम् न अपि वातयमनाः हरिः ओ असर्जिवक्वारध्येयधारौ धिया मनोता प्रथमो मनीषी दशस्वसारो अधिसानो अव्येगन् दिवह्निम् सदनान्यच्छ ीते जनस्य दिव्यस्य कव्यैरधीषु भानो न हृष्येभिरिन्दोः रजोनृधिरमृतो वर्तेभिर्मृजानो विभिर्गोभिरद्भिः वृषामृष्टेरोपदम् सुरस्तैपवमानो ऋषदीर्थेपयोगोः सहस्रमृत्वा पतिभिर्वचो विदद्भस्मभिः सोरो अण्वम् विजाति ृणाचिद्रक्षसः सदांसि पुनानयम् रवोर्नहि विवादान् दृष्टोपरिष्टात्तु जलापधेन ये अन्ति दूरादोपनायमेषाम् सप्रत्रवन्नव्यासे विश्ववारसूक्ताय पसक्रेणिः प्राचाः ये दुःश्वहासो मनुषा बृहन्तस्तां से अस्यामगुरुगद्वृक्षो देवा पूरानो अपस्वा अर्गा अस्मभ्यं लोकातनयालिभूरि क्षेत्रमधुर्ज्योतिम् शिवो भज्योऽङ्गसूर्यम् दृशजेरिः परीशुभानो हरिरम् सपवित्रेरसोरसद्विसरयेहि यानः आपच्छ्लोकमिन्द्रियम् पूयमानः प्रति देवाङ्गजुषतप्रयोभिः क्षादत्पवित्रेणामदधानः कविरस्य यो नौ श्रीरन्वोते वसदाने समूरूपे मद्मन्षयः सप्तविप्राः कृषो मेधाकादु विद्विश्वदेवः सोमः पुराणस्य दायेति नित्यम् भुवद्विश्वेषु काव्येषु रन्तानुजनान्यतते पञ्चधीराः तपत्येतो मममानमिन्ये विश्वे देवास्त्रय एकादशासाः दशस्वदाभिरधितानो अव्ये मृजन्दित्वा नद्यः सप्तजह्वीः तन्नु सत्यम् भवमानस्यास्तु यत्र विश्वे कारवः सन्न सन्त ज्योतिर्यदह्ने अकृणोदु लोकम् रावन्मनन्दस्य वेतरभीतम् परिसद्भेव सुमान् इहो दाराजानसत्यस्समीतीर्यानः सोमः पुनानः कलसाङ्गयासीत्सीदम् मृगो न माहिषो वनेषु साकमुक्षामर्जयम् दस्वसारोदसधीरस्य धीतयोधरत्रीः हरिपर्यद्रवज्जा सूर्यस्य द्रोणम् नक्षेत्रोणवाजी संवादभिर्नसि सर्वावसानो निषादधन्वे पुरुवारो अद्भिः मर्यो न योषामभिनिष्कृतव्यम् सङ्गच्छते कलसमुश्रियाभिः उत प्रपिप्यभूधरज्ञायायम् दुर्धाराभिः सजते सुमेधाः मूर्धानङ्गापयसा चमोष्वभिश्रीगन्धिवसुभिर्न नित्यैः सनो देवेभिः पवमानरतेन्दोरयिमश्विनम् वावसानः प्रतिरायतामुसती पुरन्धिरस्पद्यामसूनाम् नूनोरयिमुपामास्वनिगमन्तम् पुराणो बादाप्यम् विश्वश्चन्द्रम् पवन्द्युरिन्दोधार्यायुः प्रातर्मक्षूर्यावसुर्जगम्यात् अभियस्मिन् वालिनी वसुभस्पर्धम् तेजिरसूर्येण विशाः अपोरेणानः पावते कबीयन् भृजन्न पशुबद्धनायमन्म द्विधाभ्योर्मन्नमृतस्य धाम सर्विते भुवनानि प्रसन्द धियःपिन्वानास्वसारेण कापादितायन्तीरभिवावश्रयिन्दम् पर्यक्रभिः काव्याभरकेतो रोणरथो भुवनानि विश्वाः देवेषु यशोमत्ताय भूषन् दक्षाय राजः पूर्वभूषणव्याः द्विजे जातश्रियानिरीयाय श्रियम्बयोजरिभ्यो दधाति श्रियम्बधानामृतत्वमायम् भवन्ति सत्यासमिथामि तद्रौ इषवोर्जमभ्यार्षासङ्गामुरुज्योतिकृणीमत्सीदेवान् निःसानिहृतहातानिरुद्धम्पवमानबाधसे सोमशत्रून् करिक्रन्ति हरिरासृज्यमानस्येदन्वरस्य जठरे पुनानः दृढर्यसकृणुते निर्निरङ्गातो मतीर्जनयतस्वदाभिः हरिसृजानपत्यामृतस्येन पिबादमरिदेवनामम् एवो देवानाम् मुख्यादिनामाविष्कृणोति परिहृणप्रवाचे अपामिवे दूर्मयस्तस्तूराणा प्रमाणीराजीरते सोमवच्छ नमस्यन्तीरुपचयन्ति सञ्चाच विसन्ति सतीरुसन्तम् ्रजानम् हिरण्णसानाभम् सन्दोहम् चुक्षणम् गिरिष्ठाम् अम्बावसानम् मतयः सचन्ते भक्तिवरूनम् समुद्रे यष्यन्वाचामुपभक्ते बहोतः पुराणयम् दोविश्यामनीषाम् इन्द्रस्य यक्षयतः सौभराय सुवीर्यस्य पदाय स्याम सेनानीश्वरो अग्रे रथानाम् गव्यन्ने जिहर्षते अस्य सेनाः भगवान् कृण्वन्निन्द्रहवान् सखिभ्यासो मो वस्त्रारभसानि धत्ते सर्वस्य हरिंहरयोपयन्तस्वहैरनीशितम् नमोभिः आदिष्टदिरमिन्द्रस्य सखा विद्वान् येनासुमतिम् व्याच्यच्छ स नो देवदेवता देववस्व भये स्वामप्सरस इन्द्रपानाः कृण्वन्नपो वर्षयन्त्यामुदे मामुरो रामो गरिवस्य पुराणः अधीतयेह तये भवस्व स्वस्तये सर्वदा तये बृहते तदूषन्ति विश्व इमे सखा यस्तदहम् वस्मि पवमान सोम सोमः पवते जनिकामदीनाम् जनिकादिवो जनिका पृथिव्याः जनिकाग्नेर्जनिका सूर्यस्य जनितेन्द्रस्य जनितो विष्णोः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्राणाम् स्वधिधर्मणानाम् सोमः पवित्रमत्ये दिलेभन् राविवद्वाजपूर्मिन्न सिन्धुर्गिरः सोमः पवमानो मनीषाः अन्तः पश्यन् व्रजने मावधान्यातिष्ठति वृषभो गोषु जानन् समत्सर पृत्सु मन्मन्नवादः सहस्रवेता अभिवाजमर्ष इन्द्रायेन्दोपवमानो मनीष्यांसोरोषण्डन् हरिप्रियः कलशे देववाद इन्द्राय सोमोरण्यो मदाय सहस्रधानस्वदवादयेन्दुर्वादेन सपूर्योपधिविद्यायमानो मृगानो अप्सुदु दुहानो अद्रौ अभिदत्ति बाभुवनस्य राजा विदद्गातुम् ब्रह्मणे भूयमानः प्रजायिनः पितरः स्वपूर्वे कर्माणि चक्रः पवमानधीराः मन्मन्नपादः परिधीन्द्रपोर्नुभिरेभिरस्यैर्मघवा भवानः यथा पवधामनवेव योधा मित्रहावरिभो विद्धविष्मान् देवापवस्वद्रवीणम् दधा न इन्द्रे सन्दिष्टजनयायुधानि अवस्वतो ममधूमाङ्घृतामापोसानो अधिकानो अव्ये अभद्रोणानि घृतवान्तिसीदमदिन्दमो मत्सर इन्द्रपाणाः दृष्टिम् दिवस्वदधारः पवस्वदगस्वदावाजयुर्देववीतौ संसिन्दोभिः कलशे वावधानस्वमुश्रुयाभिप्रतिरन्धायुः एषस्य सोमो मतिभिः पुनानोद्यो न भाजीदरतीदराजीः दुग्धमतीते ऋषिरमुर्वीव गातुः सुयमो नमोलाः स्वायुधः सोदृभिः पूयमानोऽभ्यर्षगुह्यम् चारुणाम अभिवाजम् सत्यैरिवस्रवस्याभिवायुमभिगादेव सोम शिशुम् जज्ञानम् हर्यतम् रेजन्ति शुम्भन्ति वह्निम् मरुतो गणेन कविर्गेर्भिः काव्येन कविः संसोमः पवित्रमत्येतिरे भन् श्रीमनायत्सुरिणा सहस्रनिध पदवी कवीनाम् तृतीयम् धामहिणशिराधन्सोमाविराजमनोराजतिष्ठुभ ेण स गुणो बिभृत्वा गोविन्दद्वत्सायोधानि बिभ्रत् अपामोर्मिम् सजामानः समुद्रम् तुरीयम् धाम महिषो विभक्ति पर्यो न शुभ्रस्तन्वम् वृजानोद्यो न कृत्वा सनयेधनानाम् ृगेव यूथापरिकोषवर्षन्मणि कृतच्छम्भोरविवेश अपस्येन्दोपवमानो महोभिः कणि कृतत्परिवारान्यर्ष क्रीडन् चम्भोरवीश पूजमान इन्द्रम् तेरसो मदिरावामत्तु ृहतीरागोभिः कलशाम् आविवेश सामकृण्वन् सामन्योऽपि क्रन्दन्नेत्यभिरक्षुर्नजामिम् अवग्रन्नेपवमानशत्रोन् प्रियान्नचारो अभिगीतयिन्दोः श्रीधन्वनेषु जगन्नो न पत्त्वा सोमः पुनानः कलशेषु सत्ता आदेरुदप्पमानस्य सोमयोषे भयन्ति सुधाः सुधाराः हरिराणीतपुर्वारो अप्सरिक्रदत्कलशे देवयूनाम्प्रेषा हेमना पूयमानो देवो देवेभिः समवृत्तरसम् सुधपवित्रम् पर्ये तिरेभन्मिदेवसत्त्वपशुमान्ति होताः भद्रावस्त्रा समन्या आवसानो महाङ्गविर्निवचनानि संसन् आवचयस्वशम्भोः पूजमानो विलक्षणो जागृविर्देववीतौ समोऽप्रियो यज्जदेशानो अव्यये यशस्तरो यशसांशयितो अस्मे अभिस्तरधन्वा पूयमानो यूयम् वा तस्वस्तिभिः सदा नः प्रगायताभ्यर्चामदेवान् सोमम् विनोदमहते धनाय स्वादुःपवादे अधिवारमव्यमासीदादिकलशम् देवयुर्नाः इन्दर्देवानामुपसत्यमायम् सहस्रधारपवदेवताय ृजस्तवानो अनुधामपूर्वमघन्निन्द्रम् महते सौभगाय स्तोत्रे गाये हरिहर्षा पुनान इन्द्रम् मदो गच्छतु देवराय देवैर्यायि सरथम् राधो अच्छायूयम् पात स्वस्तिभिः सदा नः प्रकाव्यमुसने बभ्रुभानो देवो देवानाञ्जनीमा विभक्ति अयव्रतः सुचे बन्धुः पावकः पदावराहो अभ्ये दिले भन् प्रहंसास्त्रिफलम् मञ्जुमच्छामालसंमृषायासुः आङ्गोष्यामानम् सखायो दुर्मृगम् साकम् प्रपदन्ति बाणम् सरम् हरमुर्गायस्य ज्योतिम् रथा क्रीडन्तम् विमतेन कामाः हरेण सङ्क्रेणुते रिग्मशृङ्गोदिवाहविर्दृशेन कृद्रः इन्दर्वाजीपावदेवोऽन्यो गायिन्द्रेशोमस्वहयिन्मन्मदाय हन्दिवक्षोपादेवर्यगादेवदेवकृण्वन्मृजनस्य राजाः ृजानस्थिरो रोम पवते अद्रीदुग्धा इन्द्रस्य सख्यम् जोषानो देवो देवस्य वत्सरो मदाय अभिप्रियाणि पवते पुनानो देवो देवान्स्वे हर्षेण भृञ्जन् इन्द्रधर्मान्द्रावसानो दसक्षिपो अव्यदसानोः ఇంద్రదత్రానదయన్నేతి పృథివీముతద్యాం ఇంద్రస్యేవ వగ్రాసన్వ ఆరోగ్రాచేతయన్నర్హదివాసమేమాం రసాయ్యప్పజసాపిన్వమానైలయన్నేతి మధుమంతమంసం ేమస్తమోమస్మైర్వ్యుర్నోర్ఘపరిలోమసి యుష్ేనాయందో సుపథా సుఖాన్ నిరోగాస్వరీవాంసి కృణ్వన్ హేమ విశ్వద్దురిదాని విఘ్నన్న విష్ణునాథన్వసానోవ్యేష్ణోర్వ్యాంజీరాజీలాన్ ంద్రోహరిదాశ్రీదారోదేవధన్వస్యాయ దేవతాయందోపరిష్ణునాథన్వసానోవ్యే సహస్రధారస్సురవిరసబ్ధపరిశ్రమవాచసాధోషక్యే పరస్మానోజే రథ అయుక్తాహత్యాసోనస సృజానాస ఆదౌ ఏదే శుక్రాసో ధన్వంతి సోమా దేవాసస్తాముపాయాతాపిబధ్యై ఏవానాయిందో అభిదేవీతిం పరిశ్రవనభో అర్ణశ్చమూషు సో అస్మభ్యం కామ్యం విహంతం రయిం దదాతు వీరవంతముగ్రం తక్షర్య జీవన సోమేన సోవాగ్రేష్టస్య వాధర్మ నిక్షోరణీకే ఆదీమాయన్వరమాపసారాయుష్టంపతిం కలసేగాపజిందుతో దివ్యోదానమిన్వృతమృతాయ పవతే సుమేధా ధర్మా భూవద్రజన్యస్య రాజా ప్రరస్మిభిర్దశభిర్భారి భూమ పవిత్రే విప్లవమానో నిజక్షారాయా దేవానాముతమర్త్యానా ీరీనామృతం భరత్సుమృతం చార్విందో అర్వాణివసేంద్రస్య వాయోరీతివర్ష సరస్వరస్రాహతీర్యో దాభవాసోమద్రవిహోమిపూనాన దేవాన పరిషిచ్యమానాక్షయం సువీరం ధన్వంతు సోమాయర్జవస్సుమతిం విశ్వవా రాహోతారో నదీ వియజో మంత్రదేవదేవతేవస్వమహేశో మత్సరేవానా మహిద్యుష్మీహితే గృధిదృష్టానే రోదసి పునాన అశ్వరక్రదోమిషాభిర్యుజాన సింహో నీమో మనసోజవీయాీనై పతిభిర్యేష్టా పవస్వనసన్నాయిందో శతమేవృగ్రాన్ సహస్రమేలా కవయో మృజంతి ఇందో సనిత్రం దివాపవస్వపురేదాసి మహతోధనస్య దివో న సర్గాదర్గ్రమన్హాం రాజాన మిత్రం రవీనాదిధీరాః విరుర్న పుత్రః కృతోభిర్యదాన ఆపవస్వ విషయ అస్యాదీతిం ప్రదేధారామధూమధీరసగ్రన్వారాణ్యద్భూతో అత్యేషవ్యాన్ పవమానపవసేనామగోనాం జ్ఞానసూర్యవపింబో అర్కైః కణిక్రదనుబంధామృతస్య శుక్రో విభాస్య మృతస్య ధామ ఇంద్రాయ పవసే మత్సరవాన్విన్మానో వాసం మతిభిః కవీనాం దివ్యస్తో వర్ణో వచక్షుషోమవిన్వంధారా కర్మణా దేవవీతౌ ఏందో విహకలసం సోమధానం వృందన్నిహితోజస్యోపరస్మిన్ తిస్రో వాచయేరయతి ప్రబన్ధ్యర్వృతస్య ధీషిం బ్రహ్మానో మనీషాం గావో యంతి గోపాతిం వృక్షమానా సోమం యంతి మతయో భావసానాః సోమం గావో ధేనవో భావసానాః సోమం విప్రామతిభిః పృచ్ఛమానాః సోమస్సుతః పూయతే అర్జమానః సోమే అర్కా సృష్టుభ సన్న వందే ఏవానస్వమ పరిహిచ్యమానాపవస్వ పూయమాన స్వస్తి ఇంద్రమావీశమిగతారమేణ బద్ధయా వాచం జనజాపురంధ్యం ఆరాగే విర్విప్రాణతామదీనాం సోమః పురాణో అసదక్షమోషు సపంతియం మేషునాశోనికా మాధ్వర్యవో రథిరాసస్సుహస్తాః సపూరానవుపసూరేణ ధాతోభే అప్రారోదీవిషాः ప్రియాదిత్యస్య ప్రియసా స భూతీయసూధనం కారుణేన ప్రశంసత్ స వర్ధితావర్ధన పూయమాన సోమో మేఘ్వా అభినోజ్యోతిషావీత్ పూర్వే పితర పదజ్ఞాస్వర్వియో అభిగాద్రిముష్ణన్ అక్రాన్ సముద్ర ప్రథమే విధర్మన్ నిలయన్ ప్రజాభువనస్య రాజా గృహా పవిత్రే అధిసారో అవ్యే బృహత్సోమో వావృధే సుబాలయిందుః మహత్తత్సోమో మహిళశ్చ కారాపాం యద్గర్భో వృణీత దేవాన్ అరధాదిందే పవమానవోజో జనయత్ సూర్యే జ్యోతిరిందుః మత్స్యీవాయుమిష్టయే రాధశేషమత్స్యీమిత్రా వరుణా పూయమానః మత్స్యసద్ధో మారూరం మత్స్యీదేవాన్ మత్స్యజ్యా వా పృథివీ దేవ సోమ జపవస్వృజనస్య హంధామామీ వాంబాధమానో మృధశ్చ అభిశ్రేయన్వరపరసాభిగో నామింద్రస్య త్వం దవభయం సఖాయః మధ్వసూరం భవస్వస్వోత్సలం వీరం చ నాభవస్వాభగం చ స్వదస్వేంద్రాయ పవమాన ఇందోరిం చ నాభవస్వసముద్రాత్ సోమస్సుతోధారయాత్యోమహిత్వా సింధన్న నిమ్నమభివాచ్యక్షాః ఆయో నిమ్మన్యమసరత్పురాలస్సమిందుర్గోభిరసరత్సమద్భిః ఏనస్యతే పవత ఇంద్ర సోమస్తమూషుధీరగుషతే తమస్వాన్ స్వర్చక్షారధిరస్ సత్యరుష్మః కామో నయో దేవయతామసర్జి ఏడ ప్రత్యేన వయసా పునారస్తిలోర్పాంసిదుర్దధానః వసానః శర్మ త్రివరోధమప్సుహోదే వయాతి సమానేషు రేభన్ నూనస్త్వం రాధిలో దేవసోమపరిశ్రమశంభో పూజమానః అప్సు స్వాదిష్టో మధువాన్ ఋతావా దేవో నయః సవితా సత్యమన్మా అభివాయం వేత్యరుడాగృణాలో అభిమిత్రావరుణా పూజమానః అభీగలం దీజవనం లథేష్టామభీంద్రం మృషణం వజ్రబాహుం అభివస్త్రాశుభదనాన్యరుడాభిజేనో సుదుఃఖాః పూజమానః అభిచంద్రాభర్తవేనో హిరణ్య